इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः आईआईटी दिल्ली इति भारतीय प्रौद्योगिकी संस्थानस्य विद्यार्थिनः समाकारिताः यत्ते स्वनिर्णयेषु राष्ट्रहितं सर्वोपरि स्थापयन्तु। आईआईटी दिल्ली इत्यस्य 75वें दीक्षांत समारोहं संबोधयन् श्रीमोदी अवदत् यत् प्रत्येकं संततिः तात्कालिकं विशिष्टं समाह्वानं सम्मुखीकरोति, स्वस्य राष्ट्रिय दायित्वं च निर्वहति। प्रधानमन्त्रिणा उक्तं यत् देशे नूतनानां क्षेत्राणां विकासेन युवभ्यः नूतनाः अवसराः सृज्यन्ते। सेमीकंडक्टर, अन्तरिक्ष ड्रोन इत्यादीनां क्षेत्राणां उदाहरणानि उद्धृत्य सः अवदत् यत् भारतं सर्वेषु क्षेत्रेषु आत्मनिर्भरता प्राप्तये कार्यं कुर्वन्नस्ति। श्रीमोदी अवदत् यत् आत्मनिर्भरतायाः अयमुपक्रमः विकसित भारतस्य निर्माणार्थं दृढाधारस्य कार्यं करिष्यति। अर्धचालकक्षेत्रम् अपि उदाहरणम् अस्ति। अत्रावसरे प्रधानमन्त्रिणा आईआईटी दिल्ली इत्यत्र परमप्रज्ञा इति उच्चदक्षतायुक्तस्य सङ्गणसौविध्यस्य उद्घाटनमपि कृतम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः अमेरिकादेशस्य उपराष्ट्रपतिना जेडी वेन्स इत्यनेन सह दूरभाषमाध्यमेन वार्ता कृता। एकस्मिन् सामाजिकान्तर्जालीये लेखे श्रीमोदी अवदत् यत् तौ प्रमुखेषु क्षेत्रेषु भारत अमेरिका समग्र वैश्विक सामरिक सहभागिताम् इतोऽपि सुदृढं कर्तुम् उपायेषु चर्चितवन्तौ। उभौ उच्चस्तरीय कार्येषु निरन्तरगतिं दृष्टवन्तौ, अपि च व्यापारस्य रक्षायाः महत्वपूर्ण उदयोन्मुख प्रौद्योगिकीनाम्, ऊर्जा सुरक्षायाः महत्वपूर्ण खनिजानां च क्षेत्रेषु सहकारं इतोऽपि सुदृढं कर्तुं प्रतिबद्धतां पुनरुद्घाटितवन्तौ। उभौ नेतारौ परस्पर हितस्य क्षेत्रीयस्य वैश्विकस्य च विकास विषये अपि विचाराणाम् आदान प्रदानं कृतवन्तौ। हरघर तिरंगा इत्यभियानम् अद्यारभ्य अस्मिन् मासे 17 दिनांकपर्यन्तं च प्रचलिष्यति। राष्ट्रध्वजारोहणार्थं नागरिकान् प्रोत्साहयितुं देशभक्तिं, राष्ट्र ऐक्यं, भारतस्य सांस्कृतिक परम्पराम् च आचरितुं कार्यक्रमेषु भागग्रहीतुं च अस्य उपक्रमस्य उद्देश्यः अस्ति। 2020-तमे वर्षे आजादी का अमृत महोत्सवस्य अंशरूपेण आरब्धम् एतत् अभियानम् ततः परं देशस्य बृहत्तमेषु जनसहभागित्व आन्दोलनेषु अन्यतमम् अभवत्। वर्षानुवर्षेषु एतत् यथार्थ जनान्दोलनत्वेन परिवर्तितम्, यत् भारतस्य एकतायाः, सम्मानस्य, सामूहिक राष्ट्रिय अस्मितायाः च प्रतीकरूपेण त्रिवर्णध्वजम् आचरितुं प्रदेशेषु, समुदायेषु च नागरिकान् प्रेरयति। अस्य वर्षस्य अभियानस्य विशिष्टं महत्वं वर्तते यत् एतत् भारतस्य राष्ट्रियगीतस्य वन्दे मातरम् इत्यस्य 150वें वार्षिकोत्सवस्य संयोगेन भवति, यत् राष्ट्रध्वजं, राष्ट्रगीतं च देशभक्तिविशेषस्य उत्सवे संगृह्यति। उत्सवस्यांशरूपेण सम्पूर्णे देशे वन्दे मातरम् इत्यस्य सामूहिक गायनस्य आयोजनं भविष्यति। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः अद्य श्रीविजयपुरम् नगरस्य फ्लैग पॉइंट इत्यत्र हरघर तिरंगा अभियाने भागं स्वीकृत्य राष्ट्रध्वजम् उत्तोलयिष्यति। उपराष्ट्रपतिः ह्यः अण्डमान निकोबार द्वीपानां द्विदिवसीय यात्रायै श्रीविजयपुरम् नगरे सम्प्राप्तवान्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य प्रेसिडेंट्स पुलिस कलर इति राष्ट्रपति आरक्षक वर्ण प्रदान समारोहे भागं ग्रहीष्यति। इति वार्ताः।